आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचिका निधिः झाः। आदौ मुख्याः वार्ताः। सिन्दूराभियानस्य परिप्रेक्ष्ये पाकिस्तान प्रायोजित भयोत्पादनस्य विरुद्धं भारतस्य स्थितिम् उपस्थापयितुं प्रशासनं सप्त सर्वदलीय प्रतिनिधिदलानि विभिन्नेषु देशेषु प्रेषयति। महाराष्ट्रस्य पुणे नगरे तात्कालिक विस्फोटक यन्त्राणां आईईडी निर्माण परीक्षणयोश्च सम्बद्ध प्रकरणे प्रतिबन्धितस्य आईएसआईएस आतंकवादी संघटनस्य स्लीपर मॉड्यूल इत्यस्य द्वौ सदस्यौ गृहीतौ। संयुक्त राष्ट्र संघस्य प्रतिवेदनानुसारं पञ्चविंशत्युत्तर द्विसहस्रतमे वर्षे भारतीयार्थव्यवस्था वर्तमान वित्तवर्षे 6.3% यावत् वृद्धिं प्राप्स्यति। भारतर्तु विज्ञान विभागेन पूर्वोत्तर पूर्व मध्य दक्षिण भारतेषु आगामिषु सप्तदिनेषु झंझावातः वायु विद्युद्योतनेन सह वृष्टेः कृतं पूर्वानुमानम्। अपि च क्रीडा वार्तासु इंडियन प्रीमियर लीग स्पर्धा अद्य एक सप्ताहानन्तरं पुनः आरप्स्यते। स्पर्धायाम् अद्य रॉयल चैलेंजर्स बेंगलुरु कोलकाता नाइट राइडर्स दलयोर्मध्ये एम चिन्नास्वामी क्रीडांगणे द्वंद्वं भविष्यति। अथ वार्ताः विस्तरेण। सिन्दूराभियानस्य परिप्रेक्ष्ये पाकिस्तान प्रायोजित भयोत्पादनस्य विरुद्धं भारतस्य स्थितिम् उपस्थापयितुं प्रशासनं सप्त सर्वदलीय प्रतिनिधिदलानि विभिन्नेषु देशेषु प्रेषयति। प्रतिनिधिमण्डलानि अस्मिन् मासान्ते संयुक्त राष्ट्र सुरक्षा सदस्य देशैः सह प्रमुख सहभागी देशान् प्रति भ्रमितारः। तेषु विभिन्नानां राजनैतिक दलानां सांसदाः प्रमुखाः राजनीतिज्ञाः विशिष्टाः कूटनीतिज्ञाः च सम्मिलिताः भविष्यन्ति। सर्वदलीय प्रतिनिधिदलं सर्वप्रकारेषु अभिव्यक्तिषु च भयोत्पादनस्य प्रतिकारार्थं भारतस्य राष्ट्रिय सर्वसम्मतं दृढं च दृष्टिकोणम् उपस्थापयिष्यन्ति। एतानि प्रतिनिधिमण्डलानि भयोत्पादनस्य विरुद्धं भारतस्य शून्य सहिष्णुतायाः दृढं सन्देशं विश्वं प्रति अग्रे नेतुं शक्नुवन्ति। सप्त प्रतिनिधिमण्डलानां नेतृत्वं भाजपादलस्य रविशंकर प्रसादः वैजयन्त पाण्डा कांग्रेसदलस्य शशिथरूर जेडीयू दलस्य संजय कुमार झाः डीएमके दलस्य कणिमोजी करुणानिधिः एनसीपी दलस्य सुप्रिया सुले शिवसेना दलस्य श्रीकांत एकनाथ शिंदे च करिष्यन्ति। वार्ताहरैः सह संवादक्रमे भाजपेति दलस्य सांसदः रविशंकर प्रसादः अवोचत् यत् उपक्रमोयं प्रधानमन्त्रिणः नरेन्द्रमोदिनः दूरदृष्टिं प्रतिबिम्बयति इति। सः एतदपि न्यगदयत् यत् भारतस्य सामूहिकः संकल्पः संयुक्तरूपेण भयोत्पादनस्य विरुद्धं वर्तते, सममेव विश्वः अस्माकं एकतां दृश्यात्।
Terrorism is a global curse. We'll do our best to convey India's strategic position wherein we are all for amity and peace, but we are also very clear that tough action has to be taken against terrorism, which India has shown recently in Pakistan.
महाराष्ट्रस्य पुणे नगरे 23-2000 वर्षे तात्कालिक विस्फोटक यन्त्राणां आईईडी निर्माण परीक्षणयोश्च सम्बद्ध प्रकरणे प्रतिबन्धितस्य आईएसआईएस आतंकवादी संघटनस्य स्लीपर मॉड्यूल इत्यस्य द्वौ सदस्यौ गृहीतौ। एनसीए एनआईए इत्यनेन एकस्मिन् वक्तव्ये संसूचितं यत् द्वौ जनौ मुंबई अंतरराष्ट्रीय विमान स्थानकस्य टर्मिनल द्वितीये अप्रवासिनाभिकरणेन अवरुद्धौ आस्ताम्। अभिकरणेन संसूचितं यत् अभियुक्तौ विगत वर्षद्वयं यावत् पलायितौ आस्ताम्, तथा च एनआईए विशिष्ट मुंबई न्यायालयेन तयोः विरुद्धं निगडनादेशो अपि प्रसारिता। तत्र उक्तं यत् अन्यैः गृहीतैः अभियुक्तयोः कृते पूर्वमेव आरोपपत्रं पञ्जीकृतम्, निगडितौ जनौ पुणे नगरस्य भाटक गृहे आईईडी विस्फोटक संग्रहे प्रवृत्तौ आस्ताम्। अस्मिन् प्रकरणे अन्वेषणं निरन्तरं प्रचलति। निर्वाचनायुक्तः डॉक्टर विवेक जोशी अद्य आगामी बिहार विधानसभा निर्वाचनानां सज्जतां समीक्षितुं पूर्व चंपारण जनपदं अगच्छत्। अद्य बिहारस्य चतुर्दिवसीय यात्रायाः द्वितीय दिवसः वर्तते। निज यात्रावधौ असौ व्यवस्थां मतदातृभ्यः सौविध्यान् सुरक्षा स्थितिं च निरीक्षयति। सममेव असौ ईवीएम यन्त्राणां प्रथमस्तरीय निरीक्षणम् अपि अवलोकयति। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। संयुक्त राष्ट्र संघस्य प्रतिवेदनानुसारं पञ्चविंशत्युत्तर द्विसहस्रतमे वर्षे भारतं द्रुतगत्या वर्धमाना प्रमुखार्थव्यवस्था भविष्यति। प्रतिवेदने उल्लिखितं यत् भारतीयार्थव्यवस्था वर्तमान वित्तवर्षे चीनदेशं अमेरिकादेशं यूरोपीयसंघं च अतिक्रम्य 6.3% यावत् वृद्धिं प्राप्स्यति। विश्व आर्थिक स्थिति संभावनायाः विषये संयुक्त राष्ट्र संघस्य नवीनतमं प्रतिवेदनं प्रतिवेदयति यत् भारतस्य जीडीपी वृद्धिः आंतरिक व्ययेन प्रबल सर्वकारीय निवेशेन सेवा निर्यातेन च प्रेरिता इति। यद्यपि वैश्विक अर्थव्यवस्था मंदीभूता विद्यते तथापि भारतीय अर्थव्यवस्था तीव्रगत्या प्रवर्धते। भारतर्तु विज्ञान विभागेन पूर्वोत्तर पूर्व मध्य दक्षिण भारतेषु आगामीषु सप्तदिनेषु झंझावातः वायु विद्युत द्योतनेन सह वृष्टेः पूर्वानुमानं कृतम्। ऋतु विज्ञानेन विभागेन कोंकण गोवा मध्य महाराष्ट्र मराठवाड़ा क्षेत्रेषु आगामीषु चत्वारि पंच दिनेषु पश्चिम भारते अपि एतादृशेः स्थितेः पूर्वानुमानं प्रकटितम्। उत्तर पश्चिम भारते जम्मू कश्मीर लद्दाख गिलगित बालिस्तान मुजफ्फराबाद हिमाचल प्रदेश उत्तराखंड राज्येषु च आगामीषु त्रीणि चत्वारि दिनानि यावत् वज्रपातस्य विद्युद्योतनस्य तीव्र वायोः च संभावना प्रकटिता। अद्य विश्व उच्च रक्तचाप दिवसः वर्तते। उच्च रक्तचापेन सह सम्बद्धानां समाह्वानानां विषये जागरूकताम् उत्पादनं तस्य निवारणस्य प्रबन्धनं च प्रभावी रणनीतयः प्रवर्धनं च अस्य दिवसस्य उद्देश्यम् अस्ति। अस्मिन् वर्षे अस्य दिवसस्य 20 वर्षाणि पूरितानि। वर्षस्यास्य विषयः अस्ति रक्तचापं सटीकरूपेण मापयन्तु तत् नियन्त्रयन्तु दीर्घकालं यावत् जीवन्तु इति। विश्वे उच्च रक्तचापस्य विरुद्धं युद्धं कर्तुं केन्द्रितस्य अप्रशासनिक संस्थया WHL इति विश्व उच्च रक्तचाप लीग इत्यनेन 5-2000 वर्षे विश्व उच्च रक्तचाप दिवसस्य आरम्भः कृतः। भारतं स्वस्य एकाधिकैकशततमान्तरिक्ष कार्यक्रमेण महत्वपूर्णं लक्ष्यं प्राप्तुं सज्जम्। इसरो इत्यस्य PSLV-C61 इति क्षेपणास्त्र श्वः प्रातः 9:55 आन्ध्रप्रदेशस्य श्रीहरिकोटायाः सतीश धवनान्तरिक्षकेन्द्रात् भूनिरीक्षणोपग्रहम् EOS-09 इति उपग्रहं प्रक्षेपयिष्यति। 25-2000 इंडियन प्रीमियर लीग स्पर्धा अद्य एक सप्ताहानन्तरं पुनः आरप्स्यते। स्पर्धायां अद्य रॉयल चैलेंजर्स बेंगलुरु कोलकाता नाइट राइडर्स दलयोर्मध्ये एम चिन्ना स्वामी क्रीडांगणे द्वंद्वं भविष्यति। स्पर्धायाः आरम्भः सायं 7:30 भविष्यति। इतः पूर्वं भारत पाकिस्तानयोः मध्ये वर्धमानस्य द्वन्द्वस्य कारणेन मई मासस्य 9 दिनांके आईपीएल क्रीडा स्थगिता। मई मासस्य 25 दिनांके निर्धारिता अन्तिम क्रीडा अधुना जून मासस्य 3 दिनांके भविष्यति इति वार्ताः।